एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः दैलेख जनपदस्य जलजले नामके स्थाने मिथेन ग्यास नामकम् इन्धनम् अस्थिति स्पुष्टीभूतम् वर्तते। चीनदेशस्य भूगर्भानुसन्धान संस्थया ततः संकलितानाम् निदर्शनानाम् विहितेन परीक्षणेन द्वादशकोट्यधिकैकाब्ज घनमीटर परिमितस्य मिथेन ग्यास नामकस्य इन्धनस्य तत्र भण्डारणम् अस्तीति पुष्टीभूतम् वर्तते। संस्थया दैलेख जनपदे पेट्रोलियम पदार्थस्य प्राकृतिक वायोश्च अन्वेषण कार्यस्य प्रारम्भिकम् प्रतिवेदनम् नेपाल सर्वकाराय अर्पितमस्ति। प्रतिवेदने जलजले क्षेत्रे मिथेन इन्धनस्य विशालम् केन्द्रम् अस्ति इति तथ्यम् उद्घाटितम् वर्तते। अष्टसप्तत्युत्तर द्विसहस्रतम वैक्रमाब्दस्य वैशाख मासस्य अष्टाविंशात् दिवसात् प्रारब्धे कूपोत्खनन कार्ये चतुर्षु कूपेषु प्रथमस्य कूपस्य अयम् परिणामो विद्यते। अवशिष्टेषु त्रिषु कूपेषु प्रारम्भिकानुमानानुसारेण जलजले क्षेत्रे त्रिंशदुत्तर चतुःशताब्ज घन मीटर परिमितस्य मिथेन इन्धनस्य स्थितेः प्रक्षेपणम् विहितमस्ति। अनेन आसन्न 50 वर्षाणि यावद् नेपालस्य ग्यास इन्धनस्य आवश्यकतायाः प्रपूरणस्य सम्भावना दृष्टास्ति। प्रतिनिधिसभाया ह्यस्तनोपवेशे नेपाल नागरिकता द्वितीय संशोधन विधेयक सम्बद्धम् एतत् विक्रमवर्षीयम् समितेः प्रतिवेदनम् प्रस्तुतमस्ति। राज्य व्यवस्था सुशासन समितेः सभापतिः रामहरि खतिवडा समितितः सर्वसम्मत रूपेण पारितस्य विधेयकस्य प्रतिवेदनम् सभासमक्षम् प्रास्तोत। प्रतिनिधिसभायाम् गत बृहस्पतिवासराद् विनियोजन विधेयकम् आधृत्य विमर्शनम् प्रारब्धमस्ति। विनियोजन विधेयकम् आधृत्य विहितस्य विमर्शनस्य प्रथमे दिवसे ह्यो वनवातावरण मन्त्रालयस्य कृषि पशुपक्षी मन्त्रालयस्य विधि न्याय संसदीय मन्त्रालयस्य विनियोजन शीर्षकाणि आधृत्य विमृष्टमस्ति। विमर्शने भागम् गृह्णन्तः सांसदः जनार्दन शर्मा, डाक्टर अमरेश कुमार सिंह, प्रभु शाह, दुर्गा राई, प्रेम सुवाल, विमला सुवेदी, चन्द्र भण्डारी च स्वीय धारणा व्यक्तवन्तः। तत्पूर्वम् प्रतिनिधिसभाया ह्यस्तनोपवेशे प्रमुख प्रतिपक्षणा दलेन नेकपा माओवादी केन्द्रेण नेकपा एकीकृत समाजवादी दलेन च संघीय सर्वकारीय विधेयकम् कार्यसूच्याम् स्थापयितुम् संसदः पारितीकर्तुम् च सभामुखस्य देवराज घिमिरे विधस्य ध्यानाकर्षणम् विहितम् आसीत्। उपवेशे माओवादी केन्द्रस्य प्रमुख सचेतक पदीयो हितराज पाण्डे सभायाः आकस्मिक समये संघीय सर्वकारीय विधेयकम् कार्यसूच्याम् संस्थाप्य तत्कालम् पारितीकर्तुम् अभ्याचत। समित्या पारितीकृत्य अस्यैव आषाढस्य तृतीये दिवसे कार्यसूच्याम् स्थापितम् विधेयकम् संघीय संसद सचिवालयेन सार्वजनिककृतायाम् पाक्षिक कार्यतालिकायाम् स्थापितम् नास्तीति विषये आपत्तिम् कृत्वा कार्यसूच्याम् स्थापयितुम् प्रमुख सचेतक पदीयः पाण्डे अयाचत। प्रतिनिधिसभाया ह्यस्तनोपवेशे प्रतिपक्षी रासोपा राप्रपा दलाभ्याम् विरोधाय नैरन्तर्यम् प्रदत्तम् वर्तते। पर्यटनाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणे गृहमन्त्रिणः रमेश लेखकस्य त्यागपत्रम् अनुसन्धानाय समितेः निर्माणम् च अभियाच्य रासोपा राप्रपा दलाभ्याम् गत ज्येष्ठस्य त्रयोदश दिवसात् उपवेशे नैरन्तर्येण अवरोधः विधीयमानो वर्तते। प्रतिनिधिसभायाः अपरोपवेश अद्य पूर्वाह्नस्य एकादशवादने वसति। राष्ट्रियसभाया ह्यस्तनोपवेशेन प्रतिनिधिसभातः ससन्देशम् प्राप्तम् 80+2000 विक्रमवर्षीयम् सीमा प्रवेश शुल्क सम्बद्धम् विधेयकम् प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेष्यतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। एवमेव राष्ट्रियसभायाः उपवेशे नेपालस्य अतिन्यून विकसित राष्ट्रात् विकासशील राष्ट्रे स्तरोन्नत्या सम्बद्धम् गत विक्रमवर्षीयम् अध्ययन प्रतिवेदनम् प्रस्तुतमस्ति। उपविश्य विकासार्थिक विषय सुशासन समिते सभापति कमला पन्त प्रतिवेदनम् प्रस्तुत्य षड्विंशत्युत्तर द्विसहस्रतम ख्रैष्टाब्दस्य नोवेम्बर मासे नेपालस्य अतिन्यून विकसित राष्ट्रात् विकासशील राष्ट्रे स्तरोन्नतिर्भविष्यतीति असूचयत्। एवमेव उपवेश्य उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेल आगामिन आर्थिक वर्षस्य कृते सन्तुलित क्रियान्वयन योग्य योजनाभिः विशिष्टम् यथार्थपरम् च आयव्ययकम् प्रस्तुतमस्तीति अभासत। अर्थमन्त्री पौडेल देशम् कलंक सूचित निष्कासयित् सम्पत् शुद्धिकरण सम्बद्धस्य विधेः निर्देशिकायाश्च क्रियान्वयन क्रमे अनुसन्धान कर्मणि तीव्रता प्रदानस्य कार्यम् आयव्ययके समाविष्टमस्तीति असूचयत्। उपवेशे भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहाल मन्त्रालयेन स सम्बद्धान् प्रश्नान् उत्तरयन् पूर्वाधाराणाम् निर्माणस्य क्रमे राज्यस्य निर्माण संस्थायाश्च न्यूनताया कारणात् निर्माण कार्याणाम् यथासमयम् सम्पादनम् न सम्भवतीति उदैरयत्। तत्पूर्वम् राष्ट्रियसभायाः उपवेशे सांसदाः युवसु दृश्यमानम् नैराश्यम् अपसारयितुम् राजनीतिकदलैः एकेनैव उद्देश्येन कार्यम् विधेयम् इत्यत्र बलम् दत्तवन्तः। राष्ट्रियसभायाः अपरोपवेश सेवा आषाढमासस्य नवमे दिवसे दिवा सपादैकवादने वस्ता। न्यायपरिषदा वीरगंजवर्तिन उच्चन्यायालयस्य न्यायाधीशयोः डाक्टर खुशीप्रसाद थारू इत्यस्य अर्जुन महर्जन इत्यस्य च उपरि अनुसन्धानार्थं समितिः संघटितास्ति। ह्यः उपविष्टेन न्यायपरिषदः उपवेशेन सर्वोच्च न्यायालयस्य न्यायाधीशस्य विनोद कुमार शर्मणः संयोजकत्वे समितिरियम् संघटितास्ति। नेपाली कांग्रेस दलस्य पूर्व सांसदस्य मोहम्मद अफताब आलम इत्यस्य व्यक्तिहत्यापराधात् उन्मुक्तेः प्रदानस्य निर्णयम् श्रावितवन्तौ न्यायाधीशौ इमौ न्यायपरिषदि आनीतौ स्तः। वीरगंजवर्तिना उच्च न्यायालयेन गत ज्येष्ठ मासस्य चतुर्दशे दिवसे बम्बास्त विस्फोटनस्य घटनायाम् आलम प्रवृत्तिभ्यः जनेभ्यः उन्मुक्ति प्रदत्तासीत्। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः विकासशील राष्ट्रेषु नेपालस्य स्तरोन्नतेः कार्येण श्रेष्ठानाम् अवसरस्य क्षेत्राणाम् निश्चयनस्य तेषाम् सबल व्यवस्थापनस्य च कृते कार्यक्रमान् निर्माय तेषाम् क्रियान्वयनाय प्रवर्तितुम् राष्ट्रिय योजनायोगम् सम्बद्ध विषयगत मन्त्रालयम् च अनुरुद्धवान् अस्ति। योजनायोगेन अतिन्यून विकसित राष्ट्राणाम् समूहात् विकासशील राष्ट्राणाम् समूहे स्तरोन्नतेः समाह्वयस्य आगामिन्याः योजनायाश्च विषयेषु ह्यः काष्ठमण्डपे समायोजितायाम् कार्यशालायाम् अर्थमन्त्री पौडेलः स्तरोन्नतिम् सबलाम् विधातुम् षोडश्याम् योजनायाम् अन्य क्षेत्रगत नीति सूच अन्तराबद्धताम् कृत्वा तेषाम् क्रियान्वयनस्य आवश्यकता स्थिति न्यश्चिनोत् इति समाचाराः।